पूर्वस्यां कक्षायां अस्माभिः यण्सन्धिविषये अधीतम्। अत्सन्धिप्रकरणे यण्सन्धिः एव प्रथमसन्धिः निर्दिष्टः लघुसिद्धान्तकौमुदी पुस्तके। तत्र इको यणचि इति यद्यपि विधिसूत्रं यण्सन्धिसूत्रमस्ति, तथापि अनेकविधपरिभाषासूत्राणां साहाय्येन एव इको यणचि इति सूत्रस्य सार्थक्यम् अस्ति। यथा अस्माभिः दृष्टम्, इको यणचि इति सूत्रे षष्ठीस्थाने योगा, तस्मिन्निति निर्दिष्टे पूर्वस्य, स्थानेऽन्तरतमः इत्यादि परिभाषासूत्राणाम् आवश्यकता आसीत्। कदाचित् संज्ञासूत्राणामपि परसन्निकर्षसंहिता इति आदिरन्त्येन सहेता इति सूत्राणामपि आवश्यकता आसीत्। एवं संज्ञासूत्राणि परिभाषासूत्राणि विधिसूत्राणाम् उपकारं करोति, तेनैव विधिसूत्रस्य कार्यं सम्पन्नं भवति। इदानीं यण्सन्धि अनन्तरम् अत्र अयवायवादेशसन्धिः, अयादिसन्धिः, यान्तावान्तादेशसन्धिः इति यद् लोके उच्यते तत् पाणिनिना उच्यते। अत्र लघुसिद्धान्तकौमुद्यां तु यचोयवायावः इति सूत्रम् आरभ्यते, यान्तावान्तादेशसन्धेः इदमेव सूत्रम्। एतत् सूत्रं षष्ठाध्याये विद्यते, षष्ठाध्याये प्रथमपादे पञ्चसप्ततितमं सूत्रम्। कृपया तत् अष्टाध्याय्याम् एकवारम् उद्घाटयतु, यतोहि मया संहिताधिकारः प्रदर्शनीयः। कृपया सर्वे तत्र अष्टाध्यायीम् उद्घाटयतु, अष्टाध्यायी मध्ये षष्ठाध्यायस्य प्रथमपादं कृपया स्वीकरोतु। तत्र संहिताधिकारः, संहितायामिति अधिकारसूत्रं विद्यते। एकसप्ततितमं सूत्रं संहितायाम् इति अधिकारसूत्रं विद्यते। अधिकारसूत्रं नाम किम्? सर्वत्र तस्य अधिकारः, संहिताधिकारः कुत्र पर्यन्तं विद्यते? केनचित् वक्तुं शक्यते वा? चौकाम्बः पुस्तकं यस्य कस्यापि समीपे अस्ति वा? संहिताधिकारः कियत्पर्यन्तम् अस्ति? संहिताधिकारसूत्रं लब्धं वा सर्वेषाम्? अष्टाध्याय्यां षष्ठाध्याये प्रथमपादे एकसप्ततितमं सूत्रं संहितायाम् इति सूत्रम्। अनुराधा भगिनी कृपया टैप् क्रियताम्, तस्य सूत्रस्य पार्श्वे का संख्या विद्यते? 27 वा? 71 6171 वा 6172 वा विद्यते? 72 अस्तु। 72 सूत्रं किम् अस्ति? संहितायाम् इति अस्ति। इदानीं संहिताधिकारः कुत्र पर्यन्तं व्याप्नोति? संहिताधिकारः कुत्र पर्यन्तम् अस्ति? अधिकारं नाम किम्? संहितायां तत्र पार्श्वे एका संख्या विद्यते, तत् कृपया 157 समीचीनम्। 157 वा 157 इति लिखितं वा? तर्हि 157 इत्युक्ते 156 అనుదాత్తం పదమేక వర్జం తావత్ పర్యంతం అస్తి. 157 సూత్రం కిం అస్తి? అనుదాత్తం పదమేక వర్జం. ఇదానీం అష్టాధ్యాయ్యాం సంహితాధికారః అత్ర విద్యతే. సంహితాధికారే కిం విద్యతే? సంహితాధికారే సర్వేషాం సంధినియమా సర్వే సంధినియమాః అత్రైవ ఉచ్యంతే. యథా ఇకో ఎణచీతి తత్ర పశ్యంతు సంహితాయాం 76th సూత్రం ఇకో ఎణచీతి అస్తి. తదనంతరం యచోయవాయావః అస్తి. ఇదానీం ఇకో ఎణచీత్యత్ర అస్మాభిః దృష్టం సంహితాధికారః ఆగతం. సూత్రార్థకరణ సమయే సంహితాయాం ఇకస్థానే యణ్ స్యాత్ అచిపరే ఇకస్థానే యణ్ స్యాత్ అచిపరే సంహితాయాం. ఇదానీం యచోయవాయావః ఇత్యత్రాపి యచః ఏచః ఏచః క్రమాత్ అయి అవ్ ఆయి ఆవ్ ఏతే స్యుః అచిపరే సంహితాయాం. సంహితాయాం ఇతి అధికారః సర్వత్ర అస్మాభిః స్వీకర్తవ్యః. వాంతో ఇ ప్రత్యయే వాంతః ఇ ప్రత్యయే సంహితాయాం భవతి. ధాతోస్తన్నిమిత్తస్తస్యైవ తత్రాపి సంహితాయాం ఇతి యోజనీయం. సర్వత్ర అధికార సంహితాయాం ఇతి పదం అర్థస్వీకార సమయే అస్మాభిః యోజనీయం. కియత్ పర్యంతం యోజనీయం ఇత్యుక్తే 157th సూత్ర పర్యంతం అస్మాభిః యోజనీయం. సయేవ అధికారః ఇతి ఉచ్యతే. అధికారం నామ తత్ర ఏకస్మిన్ దేశే ఏకస్మిన్ ప్రదేశే ఏవ భవత్ తత్ర అధికారిణః భవంతి. తేషాం వ్యాప్తిః కర్ణాటక ప్రాంతస్య వ్యాప్తిః భవతి. తే కిం కుర్వంతి? తత్ర పృథక్ స్థలేషు స్వమంత్రిణం వా స్వ అమాత్యం అమాత్యాన్ వా ఆదిశంతి. ఏవం కార్యం కురు ఏవం కార్యం కురు ఏవం కార్యం కురు ఇతి. తేషాం ఆదేశేన తే పాలయంతి. తథైవ సంహితాయాం ఇతి అధికార సూత్రం విద్యతే. సంహితాధికారం స్వీకృత్య అత్ర సర్వే సర్వాణి సూత్రాణి 157th సూత్ర పర్యంతం సర్వాణి సూత్రాణి కార్యం కరోతి. ఏతదేవ అధికార సూత్రం నామ. ఇదానీం అస్మాభిః సన్యాచ పరిభాషాచ విధిర్నియమేయేవ చ అతిదేశో అధికారశ్చ షడ్విధం సూత్రముచ్యతే. షడ్విధం సూత్రలక్షణం వా షడ్విధం సూత్రముచ్యతే ఇతి శ్లోకం కారిక పఠిత. సన్యా సూత్రం నామ కిం ఇతి అస్మాభిః అధీతం. యతో హి తత్ర తస్య ఆదిరంతేన సహేత తుల్యాస్య ప్రయత్నం సవర్ణం అనుదిత్ సవర్ణస్య చా ప్రత్యయః. ఏతాని సర్వాణి సన్యాసూత్రాణి. ఇదానీ పరిభాషాసూత్రాణి కాని ఇతి అస్మాభిః అధీతం. పరిభాషాసూత్రాణి కాని తస్మిన్ ఇతి నిర్దిష్టే పూర్వస్య స్థానేంతరతమః షట్టి స్థానే యోగ ఇతి పరిభాషాత్రయం అస్మాభిః అధీతం. పరిభాషాసూత్రం సన్యాసూత్రం కిం కరోతి? విధి సూత్రస్య ఉపకారం కరోతి. ఏవమేవ అత్ర అధికార సూత్రం అపి సంహితాయామితి అధికారే విద్యమానం విధి సూత్రం అధికార సూత్రస్య అధికారం పాలయతి. ఇదానీం యచోయవాయావః. సర్వైః కిం కర్తవ్యం? కక్షాయాః సమాప్తిః యదా భవతి ఏకవారం తత్ లఘు సిద్ధాంత కౌముదీ స్థిత సూత్రం అష్టాధ్యాయ్యాం ఉద్ఘాట్య ద్రష్టవ్యం కస్మిన్ అధికారే అస్తి. అస్య అనువృత్తిః కిం అస్తి? అనువృత్తి పదాని కాని పదాని అనువృత్తిః అనువృత్తిం అనువృత్తి ఆగచ్చతి. ఏతత్ సర్వం అస్మాభిః ద్రష్టవ్యం భవతి. అనేనైవ సంపూర్ణ జ్ఞానం భవతి. అష్టాధ్యాయీం వినా యది లఘు సిద్ధాంత కౌముదీం పఠామః అష్టాధ్యాయీం అదృష్ట్వా భవద్భిః వక్తుం శక్యతే. యా తత్ర యత్ సూత్రమస్తి అత్రాపి తదేవ సూత్రమస్తి. కిమర్థం అష్టాధ్యాయీ దర్శనం ఇత్యుక్తే పాణినేః దర్శనమేవ కించిత్ వైలక్షణ పాణినేః దర్శనం కించిత్ విలక్షణేన అస్తి. సహ ఏకస్మిన్ అధికారే ఏకం సూత్రం స్థాపయతి. ఏకస్మిన్ ప్రకరణే ఏకస్మిన్ సూత్రం స్థాపయతి. తత్ ప్రకరణం కుత్ర ఆగచ్చతి ఇత్యాది ఇత్యాది విషయాః అపి అస్మాభిః జ్ఞేయాః. అతః इदानीम् अष्टाध्यायीमपि किञ्चित् अस्माभिः मध्ये मध्ये द्रष्टव्यं भवति. कदाचित् मया विस्मर्यते चेत् कृपया स्मारयन्तु अष्टाध्यायीं द्रष्टुं. यदा सूत्रस्य नूतनसूत्रस्य आरम्भं कुर्मः कृपया कोऽपि स्मारयन्तु. मया किञ्चित् सङ्ख्याविषये गमनं न दीयते, कृपया स्मारयन्तु. इदानीं सूत्रं पठामः. यचोय वायावः, अस्मिन् सूत्रे पदद्वयं विद्यते. ये चः अयवायावः तत्र पदच्छेदः अयमस्ति. अय् अव् आय् आवः इति अवान्तरपदच्छेदः. अत्र किम् अस्ति, अयवायावः इति प्रथमाविभक्ति बहुवचनमस्ति, ये चः इति षष्टिविभक्ति एकवचनमस्ति. सूत्रार्थः किं वदति, ये चः क्रमात् अय् अव् आय् आव् एते स्युः अचि परे इत्यर्थः. अचि इत्युक्ते संहितायामेव भवति. एतद्विधिसूत्रमस्ति. किं विधास्यति एतत्? अय् अव् आय् आव् एते आदेशाः विधीयन्ते अनेन सूत्रेण. इदानीम् अयवायावः इत्यत्र एकमेव पदमस्ति, तर्हि समासः विद्यते वा इत्युक्ते विद्यते. अय् च अव् च आय् च आव् च अयवायावः इति इतरेतरयोगद्वन्द्वसमासः. यथा रामः च कृष्णः च मुकुन्दः च गोविन्दः च रामकृष्णमुकुन्दगोविन्दाः इति यथा भवति, तथैव अत्र इतरेतरयोगद्वन्द्वसमासः विद्यते. इको यणचि इत्यत्र अचि इति पदम् अनुवर्तते. तत्र अस्माभिः इदानीं द्रष्टुं शक्यते यचोयवायावः इति पञ्चसप्ततिमं सूत्रं वा ततः पूर्वं किम् अस्ति, इको यणचि इति सूत्रं विद्यते. इको यणचि इत्यतः अचि इति पदम् आगच्छति. एवं किम् अभवत्, अचिपरे. इदानीं येचः अचिपरे इति अभवत्. इदानीं येचः नाम किं, षष्ठीविभक्तौ अस्ति येचः इति पदम्. अतः किं षष्ठीस्थाने योगा इति सूत्रस्य प्रवृत्तिः भवति. षष्ठीस्थाने योगा किं कथयति, अनिर्धारितसम्बन्धविशेषा षष्ठी स्थाने योगा बोध्या इति सूत्रार्थः. अनिर्धारितसम्बन्धः अत्र येचः अय् अव् आय् आवः इति अनयोः सम्बन्धः अनिर्धारितः. न अत्र स्वस्वामिभावसम्बन्धो वा जन्यजनकसम्बन्धो वा विद्यते. स्वस्वामिभावसम्बन्धः नाम राज्ञः भृत्यः इत्यत्र भृत्यः सेवकः भवति, सः स्वामिनं राजानं सेवते. तेन तयोर्मध्ये किम् आगतं, स्वस्वामिभावसम्बन्धः आगतम्. अतः षष्टिविभक्तिः राज्ञः अस्ति. एवमेव मम पुस्तकं तस्याः पुस्तकम् इत्यत्र स्वस्वामिभाव स्वत्वसम्बन्धः इत्युक्ते ओनर्शिप् अस्ति. अतः स्वस्वामिभावसम्बन्धः अस्मत्शब्देन बोध्य मम इत्यनयोः भवति. एवं तस्य पुस्तकम् एवं स्वस्वामिभावसम्बन्धः अस्ति. इदानीं दशरथस्य पुत्रः इत्यत्र जन्यजनकभावसम्बन्धः अस्ति. दशरथः पिता अस्ति, पुत्रः इति पुत्रः अस्ति, जन्यजनकभावसम्बन्धः. एवं पुत्रं पिता जनयति, अतः जन्यजनकभावसम्बन्धः इति उच्यते. अतः तत्र दशरथस्य इति षष्टिभक्तिः सम्पन्नः. एवमेव षष्टी नाम सम्बन्धः कश्चित् भवेत् इति. यदा इदानीं व्याकरणे शब्दशास्त्रे अनिर्धारितसम्बन्धः यदि भवति चेत् तस्य किं भवति, स्थाने इति पदम् अस्माभिः योजनीयम्. षष्टिस्थाने योग इति अनेन सूत्रेण, षष्टिस्थाने योग इति परिभाषासूत्रम् अत्रापि आगच्छति. ये चः इति षष्टिविभक्तिः अस्ति वा, ये चः इत्यत्र षष्टिस्थाने योग इति सूत्रमागत्य किं वदति, षष्ठी विभक्तौ अस्ति अतः इदानीं येचः इत्यत्र येच स्थाने इति वक्तव्यम्। इदानीं वि एन् मीनाक्षी भगिनी पृच्छति येचः षष्ठी कथम्। इदानीं येच् इति प्रत्याहारः अस्ति, येच् येच् चकारान्तः पुल्लिङ्गः, येच् शब्दः, येच् येचौ येचः प्रथमाभक्ति बहुवचनम्, येचम् येचौ येचः येच येच वाच वाग्भ्याम् एकभ्याम् एकभिः, येचे एकभ्याम् एकभ्यः, येचः एकभ्याम् एकभ्यः, येचः येचोः येचाम् इति भवति। षष्ठी विभक्तिः आगतम्। यथा वाक् शब्दः चकारान्तः पुल्लिङ्गः वाच् शब्दः यथा अस्ति, चकारान्तः पुल्लिङ्गः एवं येचः इति षष्ठी विभक्तिः अस्ति। इदानीं येचः षष्ठी विभक्ति येचस्थाने इति आगतम्। इदानीम् अचि परे येचः क्रमात्, क्रमात् इति विषयस्य वयं पुनः क्रमात् इति विषयस्य पुनः वयं पश्यामः। अयवायावः इत्यत्र प्रथमाविभक्तिः अस्ति, अतः प्रथमाविभक्तिः सर्वत्र विधेया भवति। यदि विधिसूत्रं भवति प्रथमाविभक्तिः किं निर्दिशति, अयमेव विधेयः इति। विधेयः नाम एते एव आदेशरूपेण वा आगमरूपेण वा विधीयते इति आगच्छति। येच स्थाने, अतः इदानीं किम् अभवत्, येचः येचः स्थाने अय् अव् आयि आवः आदेशाः भवन्ति इति आगतम्। येच् नाम एवो ऐ औ इति चत्वारः वर्णाः सन्ति। अय् अव् आयि आव् इति अयवाया वा इति आदेशाः अपि सन्ति। इदानीं प्रश्नः आगच्छति, कः आदेशः कस्य स्थाने भवति इति एतस्य ज्ञानम् अधोलिखे कथं ज्ञायते इति प्रश्ने कृते तत्र सूत्रार्थे एव निर्दिष्टः क्रमात्। क्रमात् इति पदं कथम् आगतम् इति प्रश्ने कृते अग्रिमसूत्रं विद्यते, यथासङ्ख्यम् अनुदेशसमानाम्। एतदपि एतत् परिभाषासूत्रमस्ति, यथासङ्ख्यम् अनुदेशसमानाम्। इदानीम् अष्टाध्यायीं पश्यतु। प्रथमाध्यायस्य तृतीयपादे दशमं सूत्रम् एतत्, यथासङ्ख्यम् अनुदेशः समानाम्। यथासङ्ख्यम् इत्यत्र प्रथमाविभक्तिः एकवचनमस्ति, अनुदेशः अनुदेशः नाम विधानं कार्यम् इति प्रथमाविभक्तिः एकवचनमस्ति। समानाम् इत्यत्र षष्ठीविभक्तिः बहुवचनमस्ति। इदानीं यथासङ्ख्यम् अनुदेशः समानाम्, समानां यदा समानसङ्ख्यायुक्तानां कार्यं भवति तदा यथाक्रमं स्वीक्रियताम् इति परिभाषासूत्रमेतत्। परिभाषा नाम अनियमे नियमकारिणी परिभाषा इति उच्यते। परिभाषासूत्रं किमपि न विधास्यति परन्तु साहाय्यं करोति। कस्य साहाय्यं करोति, विधिसूत्रस्य साहाय्यं करोति। अत्र यथासङ्ख्यमनुदेशसमानामिति परिभाषासूत्रं यचोयवायावः इति विधिसूत्रस्य साहाय्यं करोति। कथं साहाय्यं करोति, इदानीं चत्वारः आदेशाः सन्ति, अय् अव् आय् आव् इति चत्वारः स्थानिनः सन्ति। स्थानी नाम एचः स्थाने एव आदेशाः। निमित्तं तु अचि इति निमित्तमस्ति, एचः स्थाने अचि परे, यदि अच् परकत्वम् अस्ति, अच् परे अस्ति तदा किं भवति, एच स्थाने एते आदेशाः भवन्ति। कस्य स्थाने कः आदेशः भवति इति प्रश्ने कृते यथासङ्ख्यं स्वीकुर्वन्तु, टेक् करस्पाण्डिङ्ग्लि रेस्पेक्टिव्लि, वन् इस् टु वन् इति कथयामः किल। When the Adesha and the Sthanis are equal in number, then this Paribhasha Sutra comes into play and says, use Yathasankhya. Use Yathasankhya means, first is used for the first, second is used for the second, third is used for the third, fourth is used for the fourth. Evam, kim bhavati, samana sankhya yuktanam atra adeshopi, atra adeshaha, स्थानिनः समानसंख्यकाः भवन्ति अतः इदानीम् अस्माभिः किं कर्तव्यं भवति एकारस्य स्थाने ऐ ओकारस्य स्थाने औ ऐकारस्य स्थाने आय् औकारस्य स्थाने आव् अवश्य अस्माभिः यदा स्थानी आदेशाः स्वीक्रियन्ते एच् इत्यत्र ए ऐ ओ औ इति वर्णमालाक्रमेण न गृहीतव्यम् एचः इत्यत्र ए ओ ऐ औ इति यथा माहेश्वरसूत्रे अस्ति तथा एव ग्रहणं कर्तव्यम् तदा एव एकारस्य स्थाने अय् ऐकारस्य स्थाने आय् ओकारस्य स्थाने अव् औकारस्य स्थाने आव् इति भवति इदानीं यथासङ्ख्यमनुदेशस्थमानां किं करोति प्रथमस्य प्रथमं द्वितीयस्य द्वितीयं तृतीयस्य स्थाने तृतीयं चतुर्थस्य स्थाने चतुर्थः आदेशः एवम् अस्माभिः कर्तव्यम् इति क्रमः क्रमस्य निर्देशं करोति एवं किम् आगतम् एकारस्य स्थाने अय् ओकारस्य स्थाने अव् ऐकारस्य स्थाने आय् औकारस्य स्थाने आव् इति आगतम् इदानीं पुनः पश्यामः चेत् तर्हि एवं कोष्टकं सम्पद्यते यान्तावान्तदेशसन्धिः कोष्टकं टेबल् टु रिमेम्बर् द सन्धि एवं विद्यते तत्र संस्कृतभारत्यां सन्धि इति पुस्तकम् अस्ति सन्धिपुस्तके एवम् एतादृशकोष्टकानि भवन्ति तत्र अस्माभिः अपि व्योमा लिङ्ग्विस्टिक्स् प्रसङ्गतया वदामि न तु मार्केटिङ्ग् इत्यादि करोमि इति कृपया मा चिन्तयन्तु प्रसङ्गतया अहं वदन् अस्मि व्योमा लिङ्ग्विस्टिक् लेब्स् इति यद् अस्माकं कम्पनी अस्ति अत्र अस्माभिः सन्धि कृते पञ्चविंशतिसन्धीनां कृते एका सान्द्रमुद्रिका अस्माभिः निर्मिता विद्यते तत् सान्द्रमुद्रिकायां टेबल् अस्ति विवरणम् अस्ति आडियो अस्ति एतादृश आनिमेशन् अस्ति एकारस्य स्थाने ऐ ऐकारस्य स्थाने आ इत्यादि आनिमेटेड् दृश्यते तत्र क्रीडा तत्र बालकानां कृते बालिकानां कृते क्रीडा अपि भवति एवं यदि आवश्यकं चेत् यदि सन्देहे ज्ञानम् इतोपि दार्ढ्यं भवेत् इति आवश्यकं चेत् कृपया स्वीकर्तुं शक्यते तत् 250 रुपीस् मध्ये लभ्यते सपोर्ट् अट् व्योमा लाब्स् डाट् इन् मध्ये यदि मेल् प्रेष्यते तत्र सन्धि सि डि लभ्यते तत् मल्टिमीडिया सि डि अस्ति विण्डोस् मध्ये एव प्ले भवति कम्प्यूटर् आवश्यकं भवति श्रूयते वा यदि भवन्तः मेल् प्रेषयन्ति तदा सपोर्ट् अट् व्योमा लेब्स् डाट् इन् मध्ये मेल् प्रेषयन्ति सन्धि सि डि भवते प्रेष्यते देर् इस् नो कम्पल्शन् फार् यू टु बै द सि डि इट् इस् जस्ट् औट् आफ् दि काण्टेक्स्चुवल् रेफरेन्स् I just said that we have more than 1000 examples, we have lot of animations, we have made lot of work in that CD and prepared a CD for understanding Sandhis as a whole. We have not explained Panini Sutras there. So please don't think that Siddhanta Kaumudi or Laghu Siddhanta Kaumudi's Sutras will be explained. The Sutras are not explained there. Kutra Milati Iti Gita Padmanabhan Magini Kripaya Mail Preshayato तत्र आपणे न लभ्यते सपोर्ट् अट् व्योमा लेब्स् डाट् इन् इत्यत्र मेल् प्रेषयतु तद् मेल् अहं तत्र यः कोऽपि सेल्स् पर्सन् अस्ति सः पश्यति सः भरतः इति एकः मम सुहृदेव अस्ति सः प्रेषयति मेल् प्रेषणसमये अड्रेस् कृपया भवतः अड्रेस् इत्यादिकं प्रेषयतु नो चेत् तत्र व्योमा लेब्स् डाट् इन् वेब्सैट् मध्ये गत्वा तत्र आन्लैन् पेमेण्ट् कर्तुं शक्यते तदनन्तरम् अवश्यम् आगच्छति इदानीं यचोयवायावः इदानीं प्रथमस्य प्रथमं द्वितीयस्य द्वितीयं तृतीयस्य तृतीयं चतुर्थस्य चतुर्थम् इति आगच्छति एकारस्य स्थाने यत्कोऽपि परवर्णः नाम अत्र स्वरः यः कोऽपि स्वरः भवेत् स्वरः नाम अच्वर्णः अचि इति अचि परे इति उक्तं किल अत एव स्वरवर्णे परे किम् आगच्छति एते आदेशाः भवन्ति इदानीं कथं कथं तद्भवति इति पश्यन्तु अत्र अत्र उदाहरणं लघुसिद्धान्तकौमुद्यां किम् अस्ति हरे प्लस् ए तत्र हरये इति अस्ति इदानीं हरये इति चतुर्थीविभक्तेः रूपम् अस्ति हरिशब्दस्य चतुर्थीविभक्तिरूपं हरये हरिभ्यां हरिभ्यः इति चतुर्थीविभक्तेः रूपम् इदानीं हरे प्लस् ए इति अवान्तर हरि इति प्रातिपदिकं हरे इति भवति तन्मध्ये किमपि सूत्रम् आगच्छति तद् शब्दप्रकरणे वयं पठामः मध्ये किम् आगच्छति हरे ये इति आगच्छति इदानीं हरे इत्यत्र के के वर्णाः सन्ति इति वर्णच्छेदे कृते एवं भवति अत्र स्लैड् मध्ये पश्यन्तु ह अ ऋ ए प्लस् ए इति भवति इदानीं एकारः निमित्तः निमित्तमस्ति एकारः नाम अच्वर्णे परे एव एकारस्य अयादेशः तदेव निमित्तमिति उच्यते एकारः स्थानी इति उच्यते अय् इति आदेशः इति उच्यते आदेशः इति उच्यते स्थानी निमित्तम् आदेशः यदा आदेशः भवति तदा अस्माभिः स्थानीकः अस्मिन् सन्धौ स्थानीकः आदेशः कः निमित्तं किम् इति अस्माभिः अवश्यं ज्ञातव्यम् इदानीं निमित्ते अच् निमित्तं नाम स्वर यदि स्वरम् अस्ति तद स्वरपरकत्वं भवति एच् वर्णः तदा किं भवति एच् वर्णस्य स्थाने अयादेशाः भवन्ति इदानीम् एकारस्य स्थाने किं भवति विशेषतः अयादेशः भवति हरये इति रूपम् आगच्छति अग्रिम उदाहरणं पश्यामश्चेत् विष्णो प्लस् ए विष्णवे इति उक्तम् तत्र एवमेव विष्णो इत्यत्र वर्णच्छेदं कुर्मश्चेत् ओकारस्य स्थाने अवादेशः ओकारस्य स्थाने एव अवादेशः किं भवति विष्णवे इति भवति एवमेव नै प्लस् अकः नायकः इति अस्ति प्रायः तत्र पुस्तके नै प्लस् अकः इत्यत्र ऐकारस्य स्थाने किम् आय् आदेशः नायकः अकः इत्यत्र अकारः अस्ति अकारः अच्परकत्वम् अस्ति अतः किम् अभवत् आ इति आदेशे कृते नायकः इति अभवत् एवमेव पावकः इति उदाहरणमस्ति पौ प्लस् अकः एवं पावकः इति सूत्रमपि विद्यते एवं यचोयवायावः इति सूत्रे इदानीं पुनः तत् सूत्रं सूत्रार्थम् उदाहरणञ्च पठामः यचोयवायावः एचः क्रमात् अय् अव् आय् आव् एते स्युः असि परे इदानीम् अस्माभिः ज्ञातं संहितादिकारः विद्यते षष्टिस्थाने योग इति एचः स्थाने इति षष्टिस्थाने योग इति परिभाषासूत्रं प्रवर्तते असि असि इत्यनेन का परिभाषा प्रवर्तते तद् अस्माभिः न उक्तं पुनः स्मरणीयं भवति असि इति अनेन तस्मिन् इति निर्दिष्टे पूर्वस्य अत्र पश्यतु अचि सप्तमी विभक्तौ अस्ति अतः अचि परे तस्मिन् इति निर्दिष्टे पूर्वस्य अव्यवहितपूर्वस्य सप्तमी निर्देशेन विधीयमानं कार्यं वर्णान्तरेण अव्यवहितस्य पूर्वस्य बोध्यम् इति अस्माभिः अधीतम् तदा किं भवति अचि इत्यनेन अचि परे इति भवति अव्यवहितपूर्वस्यैव कार्यं भवति अतः हरये इत्यत्र हरे रेफोत्तर एकारे एव कार्यं भवति अव्यवहितपूर्वस्यैव कार्यम् एवम् अव्यवहितपूर्वस्य विष्णवे इत्यत्रापि कार्यम् एवं परिभाषा त्रयाणाम अत्र नूतन परिभाषा सूत्रम आगच्छति यथासंख्यम अनुदेश समाना। हरि ओम। यथासंख्यम अनुदेश समाना इति नूतन सूत्रम कार्यम करोति। एवं षष्ठी स्थाने योगा तस्मिन् इति निर्दिष्टे पूर्वस्य अनन्तरं यथासंख्यम अनुदेश समानम् ये परिभाषा त्रयाणां साहाय्येन एचोयवायावः इति सूत्रस्य इष्टसिद्धिः भवति। इदानीं पौ शब्दस्य अर्थं किम् इति मीनाक्षी भगिनी पृच्छति। पौ शब्दस्य तत्र पुई पवने इति धातुः अस्ति। तत्र पावकः इति पुई पवने धातोः निष्पन्नम् एकं रूपम्। तत् कः प्रत्ययः इति न ज्ञायते। एकनिमिषम्। कदाचित् एते किं भवन्ति अस्माभिः एकं ज्ञातव्यं। हरे ये इत्यत्र हरे शब्दस्य अर्थं किम्? हरे शब्दस्य कोऽपि अर्थः नास्ति। यतोहि अस्माभिः ज्ञातं संहितैकपदे नित्या नित्याधातूपसर्गयोः इति अधीतम् अस्माभिः। इदानीम् एकपदे संहिता नित्या भवति। हरे इति हरिशब्द हरिप्रातिपदिकमस्ति, तस्य अवान्तररूपम् हरि इति प्रातिपदिकरूपम्। तत्र प्रत्यययोजनेन मध्ये एते कार्याणि भवन्ति। तदा सन्धि नित्यं भवति। संहिता अस्माभिः नित्यसंहिता भवति। नित्यसंहिता नाम सन्धिः करणीयः एव, नो आप्शन्, यु काण्ट् लीव् इट्। तथा एव पौ प्लस् अकः पावकः इत्यत्र पौ इति कदाचित् इदानीं पावकः इदानीं पावकः इति शब्दस्य अग्निः इति अर्थः। तत्र कृशानुः पावको नलः इत्यादि अमरकोशे अस्ति। इदानीं पावकः इत्यस्य अग्निः इति अर्थं विद्यते पावकः इत्यत्र। तत्र पावकः इति शब्दः कस्मात् धातोः निष्पन्नः इति जिज्ञासायां पूय पवने दट् विच् हास् दि एबिलिटी टु प्यूरिफै मोस्ट् आफ् द थिङ्ग्स् इति प्रायः आगच्छति। अहं किञ्चित् कोश इत्यादि दृष्ट्वा पुनः अग्रिमकक्षायां वदामि, परन्तु यथा भाति एवमेव भाति। पावकः इति अग्नेः पर्यायः अमरकोशे विद्यते। तत्र पूय पवने इति अस्ति, दट् विच् प्यूरिफैस् इति आगच्छति। तत्र अकः इति एवं किं भवति, एकनिमिषं, पावकः एतत् लुट् प्रत्ययान्तशब्दः। अग्रिमकक्षायां वदामि, तद् कृत् प्रत्ययोपि अत्र आगच्छति, नुल्तृचौ इत्यादि। यथा करोति कारकः इति, करोति इत्यत्र कृधातोः भवति किल, अत्रापि पूय पवने इत्येव धातुः इति मया स्मर्यते। पुनः तत् अग्रिमकक्षायां कन्फर्म् करोमि। इदानीम् अग्रे गच्छामः. इदानीं पावकः इति रूपसिद्धिः अभवत्. एवम् अग्रिमसूत्रं विद्यते वान्तोयि प्रत्यये इति सूत्रं विद्यते. इदानीम् एतदपि वान्तादेशं करोति. अत्र वान्तः इ प्रत्यये इति पदत्रयं विद्यते. वान्तः इत्युक्ते वु अन्ते यस्य सः इत्युक्ते वान्तः इत्युक्ते वु अन्ते यस्य सः. बहुव्रीहिसमासः विद्यते. वकारः यस्य यस्य अन्ते विद्यते तदा ईप्रत्यये परे ईप्रत्यये नाम यकारादौ प्रत्यये परे. ई इति सप्तमी विभक्ति एकवचने अस्ति. प्रत्यये इति सप्तमी विभक्ति एकवचने अस्ति. इदानीं वान्तः इत्यत्र प्रथमाविभक्ति बहुवचनम् अस्ति. यका ई प्रत्यये यकारादौ प्रत्यये यकारादौ प्रत्यये सप्तमी विभक्तिः किं करोति? सप्तम तस्मिन् इति निर्दिष्टे पूर्वस्य यकारादौ प्रत्यये परे इति आगच्छति. यकारादौ प्रत्यये परे यथा अचि परे इको यणचि इत्यत्र अचि परे इति यथा आगतं. यचोयवायावः इति अचि परे इति यथा आगतम्. इदानीं किम् उच्यते? यकारादौ प्रत्यये परे ओदौतोः अव् आव् इति एतौ स्तः. ओदौतोः ओदौतोः केवलम् ओकार औकारयोः ओदौतोः नाम ओकार औकारयोः अव् आव् अव् आव् इति अत्र न उक्तम्. तत्र पूर्वविधि तत्र अस्माभिः स्वीकर्तव्यं भवति पूर्वस्मात् सूत्रात् वान्तोयि प्रत्यये इत्यत्र. तत्र यदि ओदौतोः भवन्ति तर्हि के आदेशाः भवन्ति? अव् आव् एव आदेशाः भवन्ति. तस्मात् अव् आव् इति स्वीकर्तव्यं भवति. तेन किं भवन्ति? वान्तः इप्रत्यये वान्तः नाम वकारान्तः. अव् आव् एते आदेशाः भवन्ति. कदा आदेशाः भवन्ति? इप्रत्यये परे आदेशाः भवन्ति. सप्तमी तस्मिन् निर्दिष्टे पूर्वस्य इति यकारादौ प्रत्यये परे. इदानीं तर्हि निमित्तमागतम् आदेशाः आगताः वान्तोयि प्रत्यये इत्यत्र. स्थानी के स्थानिनः के? अत्र स्थानी अस्ति वा इति पृच्छ्यते चेत् ओकारः औकारः एव स्थानिरूपेण स्वीकर्तव्यः. इदानीं प्रश्नः एवं सम्भवति यकारादौ प्रत्यये परे ओदौतोः अव् आव् एतौ स्तः इति प्रश्नः एवम् अभवति. इदानीं गो इति पदम् अस्ति. गोर्विकारः इत्यर्थे गोर्विकारः टैप् आफ् कौ. गो यत् गो इति सूत्रमागच्छति. गो यत् इति स्थिते किम्? अत्र यत् इति प्रत्ययः. तदा यत् इति प्रत्यये यकारः अवशिष्यते. अत्र किम्? ओकारस्य स्थाने अवादेशः गौ. ओकारस्य स्थाने अवादेशः केन? सूत्रेण वान्तोयि प्रत्यये इति सूत्रेण गव्यम् इति रूपसिद्धिः भवति. इदानीम् अस्माभिः प्रष्टुं शक्यते यचोयवायावः इति एतेन सूत्रेणैव कार्यसिद्धिः स्यात्. किमर्थं पुनः वान्तोयि प्रत्यये इति सूत्रस्य स्वीकारः? इति प्रश्ने कृते कः उत्तरं कोऽपि उत्तरं दातुं शक्नोति वा? किमर्थं वान्तोयि प्रत्यये इत्यस्य स्वीकारः? गो इत्यत्र ओकारः अस्ति. इदानीम् ओकारस्य स्थाने अवादेशः इति पूर्वस्मिन् सूत्रे अपि आगतम्. किमर्थम् अस्माभिः वान्तोयि प्रत्यये इति पाणिनिः किमर्थं पाणिनिना एतावत् श्रमः पाणिनिना एतावत् श्रमः किमर्थं स्वीकर्तव्यं भवति? वान्तोयि प्रत्यये इति सूत्रस्य प्रयोजनं किम्? पद्मा भगिनी उक्तवती अस्परकत्वं नास्ति. समीचीनं, सम्यक् उत्तरं दत्तं. तत्र येचोयवायावः इत्यत्र अच्परकत्वम् अपेक्षितम्. अचि परे एव अस्य सूत्र यचोयवायावः सूत्रस्य प्रवृत्तिः. अत्र यकारादि प्रत्ययः नाम यकारः अस्ति न तु अच्. अतः वान्तोयि प्रत्यये इति पाणिनिः नूतनं सूत्रं कृतवान्. यकारादौ प्रत्यये परे अपि अवादेशः भवति, तदा कार्यसिद्धिः तु यचोयवायावः इति सूत्रेण न भवति, वान्तोयि प्रत्यये इति सूत्रेण इष्टसिद्धिः भवति. एवं गव्यम् इति रूपसिद्धिः आगतम्. सर्वैः एतत् पायिण्ट् अवगतं वा? ओ समीचीनम्. सुजाता भगिनी, अस्तु. सम्यक् सम्यक्. सर्वे तत्र इदानीं वैयाकरणाः, सर्वे वैयाकरणाः सञ्जाताः, व्याकरणपरिभाषाम् अवगन्तुं समर्थाः. मम सन्तोषः भवति. वाट् इस् द कनेक्षन् बिट्वीन् गोर् विकारम् अण्ड् गव्यम्? तत्र मया गोर् विकारः इति यत् लिखितं तत्र, गोर् विकारः नाम गोर् विकारः यदा उच्यते, इदानीं टैप्स् आफ् गो कौस् यदा उच्यते, तदा यत् इति प्रत्ययः उच्यते. गोपयसोर् यत् यदा कदापि तत्र गोर् विकारः यदा उच्यते, यत् प्रत्ययः उपयोगं करोतु. तद्धितप्रत्ययः यत् प्रत्ययः, तद्धितप्रत्ययः तत्. इदानीं यकारादिप्रत्ययः, यकारादिप्रत्यये कृते गो यत् इति आगते गव्यम् इति रूपं भवति. अवगतं वा भगिनी? अस्तु, इदानीम् अग्रिमसूत्रं प्रति गच्छामः, अग्रिम उदाहरणं प्रति गच्छामः. नावातार्यम्, इदानीं नाव्यम् इति उदाहरणमस्ति. नावातार्यं, नौ इति शब्दः, औकारान्तपुल्लिङ्गः नौ शब्दः इति अस्ति. शब्दमञ्जर्यां कदाचित् भवति, अस्माभिः यदि वयम् अध्यापकाः स्मः तर्हि एव पठ्यते पठ्यते पाठ्यते. यदि वयम् अध्यापकाः न संस्कृत अध्यापनं न कुर्वन्ति, तदा अस्माभिः एतादृशशब्दाः एव कदाचित् विस्मरणं भवति, शब्दानां विस्मरणं भवति. नौ शब्दः अस्ति, नौः दावौ नावः इति अस्ति. नावाचार्यम्, इदानीं अत्र वाक्यम् उच्यते चेत् युष्माभिः अवश्यं अवगन्तुं शक्यते. गव्यम् अत्र, गव्यम् इत्यत्र एकनिमिषं, गव्यम् इत्यत्र गोपयसोर्यत् इदानीं गोर्विकारः नाम दुग्धदध्यादिकम् इति, तत्र विकारः नाम टैप्स् इत्यपि भवति, गोः यत् प्राप्यते इत्यपि भवति. इदानीं गोः किं प्राप्यते? दुग्धं प्राप्यते, तेन दधि इत्यादिकं प्राप्यते किल. गव्यं नाम इदानीं दधि अस्ति, दधि गव्यपदार्थः, गव्यम् इति उच्यते. दध्नः नाम गव्यम् इति वक्तुं शक्यते. पञ्चगव्यस्यापि पञ्चगव्यम् इत्येव अस्ति किल, उषा भगिनी उक्तवती. पञ्चगव्यप्राशनम् इति अस्ति किल, किमर्थं गव्यम् इति सम्यक् उक्तवती, सम्यक् स्मारितं भगिनी, धन्यवादः. पञ्चगव्यम् अस्ति किल, दधि इत्यादिकं. गव्यम् इति कथम अस्ति एतत् गोर विकारः तत्र गोः अस्माभिः एते पदार्थाः प्राप्यन्ते इति गव्यम् इति अस्ति एवमेव अत्र नाव्यम् इत्यत्रापि नावातार्यम् नाव्यम् नावातार्यम् इत्युक्ते जलं भवति इत्युक्ते इदानीं जलं तत्र एकस्मिन् प्रायः नदी स्वीक्रियताम् तत्र विड्त् क्रासिंग् बै दट् विच् इस् फिट् टु बि क्रास् बै अ बोट् इत्युक्ते जलं भवति नाव्यम् इत्युक्ते इदानीं जल एकस्मिन् प्रदेशे जलं विद्यते तत्र आतपस्य कारणेन औष्ण्यस्य कारणेन जलस्य परिमाणं न्यूनं भवति तर्हि एतावन्ति जलं दृष्ट्वा वयं किमर्थं नावस्य अपेक्षा अस्माभिः पद्भ्यामेव गन्तुं शक्यते इति वयं वदामः किल तदा तत् जलं नाव्यं न भवति यदि जलं कावेरी मध्ये वा तत्र गङ्गा मध्ये वा पूर्णमस्ति पद्भ्यां न गन्तुं शक्यते नावा एव गन्तुं शक्यते तदा नाव्यं भवति नाव्यं जलम् इत्युक्ते गङ्गायां नाव्यं जलं वर्तते इत्यादि प्रयोगाः कर्तुं शक्यते इदानीं नावाचार्यम् इत्यत्रापि कः तत्र यकारादिप्रत्ययः अस्ति नौ औकारः अस्ति नौ यत् इत्यत्र नौ वयो धर्म इत्यादिसूत्रेण तत्र यत् प्रत्ययः आगतः तत्र केवलं विषयसङ्ग्रहार्थं फार् द कम्प्लीट्नेस् आफ् दि नोट्स् हाव् गिवन् दट् सूत्र इट् इस् नाट् नेसेसरी दट् वी शुड् नो नौ वयो धर्म विषयमूल इत्यादि सूत्रस्य ज्ञानम् इदानीमेव भवितव्यम् इति न एतत् सूत्रं तद्धितप्रकरणे आगच्छति तदा अस्माभिः अध्येतुं शक्यते परन्तु प्रसङ्गवशात् मया उक्तं नौ यत् इति प्रत्ययः कदाचित् आगच्छति यत् इत्यत्र या इति अवशिष्यते तत्र औकारस्य परकत्वं यकारादिप्रत्ययः अस्ति प्रत्ययः अस्ति यत् इति प्रत्ययः भवेत् अत्र वान्तो हि प्रत्यय इत्यस्य प्रत्ययः एव भवेत् न तु अन्यः तदा एव अस्य सूत्रस्य प्रवृत्तिः नाव्यम् इति रूपसिद्धिः भवति इदानीम् अध्वपरिमाणे च इति अन्यत् वार्तिकम् एतत् समाप्य वदामः अध्वपरिमाणे च इति वार्तिकमेकं वार्तिककारः वदति अध्वपरिमाणे गन्तव्ये एतद् वार्तिकं किम् अध्वपरिमाणे च इति पदद्वयं विद्यते अध्वपरिमाणे सप्तमी एकवचनं च अव्ययम् इदानीं वान्तो हि प्रत्यय इति सूत्रात् वान्तः इति पदस्य अनुवृत्तिः अस्माभिः करणीयं भवति वार्तिके यदि वार्तिकं सूत्रस्य विषये प्रवृत्तिः कदाचित् सूत्रात् पदस्य अनुवृत्तिः क्रियते वार्तिकेऽपि इदानीं गोर्यूतौ छन्दस्युपसङ्ख्यानमिति वार्तिकात् गोर्यूतौ इति पदस्य पदयोः अनुवृत्तिः अपि भवति एतेषां सर्वेषां क्रमेण किं ज्ञायते इत्युक्ते अध्वपरिमाणे गन्तव्ये गोः वान्तः यूतौ अध्वपरिमाणे इत्युक्ते मार्गपरिमाणविशेषे गम्ये अपि यूतिशब्दे परे गोशब्द अवयवस्य ओकारस्य स्थाने अव् इति वान्तादेशः भवति किं तात्पर्यम् इत्युक्ते अत्र तत्र वान्तो हि प्रत्यय इत्यस्य प्रत्ययः एव भवेत् अत्र यूतिः इति शब्दः इदानीं गो यूतिः यूति इति शब्दः तदा गव्यूतिः इति रूपमागच्छति अत्र यकारादिप्रत्ययः नास्ति यूतिः इति यकारादिप्रत्ययः नास्ति यकारादिशब्दः यदि प्रत्ययः भवति चेत् वान्तो हि प्रत्यय इदानीं यूतिः इति शब्दः इदानीं यूतिशब्दः किम उच्य वदति युति शब्दः अध्वपरिमाणं अध्व नाम अयनं वर्त्वमार्गाद्व इति अमरकोशे अस्ति मार्गः अयनं वर्त्मा अध्व अध्व नाम मार्गः अत्र मार्गसूचकं भवेत् यूतिः यूतिः नाम तत्र टू फर्लांग टू मैल्स इत्यादि टू किलोमीटर्स वा तत्र प्राचीन परिमाण विषये एक शब्द परिमाण विषये एव आगन्तव्यं तदा किम् अध्वपरिमाणे च अध्य अध्वपरिमाणे गन्तव्ये एव यूति शब्दे परे तत्र ओकारस्य स्थाने किं भवति अवादेशः भवति एवं गो यूतिः गव्यूतिः इति भवति तत्र अमरकोशे मया स्मर्यते इदानीं स्मरणे आगतं गव्यूतिः स्त्रीकोशयुगम् इति अस्ति कृपया तत् पश्यन्तु अहमपि पश्यामि गव्यूतिः स्त्रीकोशयुगम् इति अस्ति यदि इदानीम् एकः विशेषः विद्यते यदि अध्वपरिमाणार्थे अथवा मार्गपरिमाणार्थे न भविष्यति तदा किं रूपं भवति गोयूतिः इति गोयूतिः इत्येव भवति न तु गव्यूतिः इदानीं पुनः पठामः वान्तोयि प्रत्यये यकारादौ प्रत्यये परे ओदौतोः अव आव एतौ आदेशौ स्तः गव्यं नाव्यम् इति उदाहरणम् अध्वपरिमाणे च इति वार्तिकम् अध्वपरिमाणे च वार्तिकं किं वदति मार्गपरिमाणे द्योत्ये यूतिशब्दे परे आदेशः भवति इदानीं प्रश्नः पुनः आगच्छति अत्र पुनः वार्तिकं कथं किमर्थम् आवश्यकं वार्तिकं कदा आगच्छति सूत्रस्य कदाचित् उक्तिः उक्तिमध्ये उक्तानुक्तदुरुक्तः भवति चेत् उक्तं वा भवति अनुक्तं वा भवति इदानीं पाणिनिना नोक्तम् अध्वपरिमाणविषये अस्माभिः किं कर्तव्यम् इति तदा वार्तिककारः किं करोति वा अस्माभिः अध्वपरिमाणे द्योत्ये अवादेशः भवति इति ज्ञेयम् अनेन वार्तिकेन इति वार्तिककारः वदति एतावत् गोयूति एण्ड् गव्यूति मीनिङ्ग् डिफ्रेण्ट् यस् गोयूतिः इत्यत्र अध्वपरिमाण मीनिङ्ग् इस् नाट् देर् अध्वपरिमाण मीन्स् अध्व मीन्स् मार्ग द मेजर्मेण्ट् आफ् दि पात् दि मेजरबल् डिस्टेन्स् मेजरिङ्ग् स्केल् आर् सम्थिङ्ग् इस् नाट् देर् इन् गोयूति Whereas in Gavyuti, it is there. इदानीं कक्षाम् अद्यैव अत्रैव समापनं कुर्मः अग्रिमकक्षायां गुणसन्धिविषये अध्ययनं कुर्मः किञ्चिदिव पुनरावर्तनं कृत्वा गुणसन्धिविषये अध्ययनं कुर्मः संशयः अस्ति चेत् पृच्छन्तु मङ्गलाचरणं कुर्मः नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम् येनाक्षरसमां नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनेय नमः वाक्यकारं वरचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्।